एष रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिना विद्यादेवी भण्डारिणा सत्तानामेव प्रदेशानाम् प्रदेश प्रमुखाः नियुक्ताः सन्ति। मन्त्रिपरिषदः परामर्शे राष्ट्रपतिना भण्डारिणा ह्य प्रदेश प्रमुखाः नियुक्ताः वर्तन्ते। राष्ट्रपति कार्यालयस्य अनुसारेण प्रथम प्रदेशस्य प्रमुखे सोमनाथ अधिकारी प्यासी, द्वितीय प्रदेश प्रमुखे तिलक परिहार, तृतीय प्रदेश प्रमुखे विष्णु प्रसाद प्रसाई, गण्डकी प्रदेश प्रमुखे अमिक शेरचन्च नियुक्ता सन्ति। एवमेव पञ्चम प्रदेशे धर्मनाथ यादव, कर्णाली प्रदेशे गोविन्द प्रसाद कलौनी, सुदूर पश्चिम प्रदेशे शर्मिला कुमारी पन्तश्च प्रमुख पदे नियुक्ता सन्ति। तत्पूर्वं सर्वकारेण सत्तानामेव प्रदेशानां प्रमुखाणां नियुक्तये राष्ट्रपतेः समक्षं नामानि परामृष्टानि आसन्। प्रधानमन्त्री निवासे बालवाटार स्थाने गतदिने उपविष्टेन मन्त्रिपरिषदः उपवेशेन सत्तानामेव प्रदेशानां प्रमुखाणां नामानि परामृष्टानि सन्तीति प्रधानमन्त्रिणः संचार परामर्शदाता डाक्टर कुन्दन अरियालः ज्ञापयत्। तत्पूर्वं नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य सचिवालयोपवेशेन प्रदेश प्रमुखेषु नियुक्तये नामानि परामृष्टानि आसन्। राष्ट्रपतिना विद्यादेवी भण्डारिणा सर्वकारेण परामृष्टेभ्य प्रदेश प्रमुखेभ्य अद्य पूर्वाह्नस्य नववादने शपथनस्य कार्यक्रमो वर्तते। बझाङ जनपदे निर्माणाधीनायाः कालंगा जलविद्युदायोजनायाः भूमिगत जलसरण्यां विलुप्ताः चत्वार श्रमिकाः मृतावस्थायां प्राप्ताः वर्तन्ते। भूमिगत जलसरण्यां आसन्न नवशत मीटर मिताभ्यन्तरे चत्वारः श्रमिकाः मृतावस्थायां प्राप्ताः सन्तीति बझाङ जनपदस्य प्रहरी नायब परीक्षकः गणेश बहादुर बम अज्ञापयत्। भूमिगत जलसरण्याः अभ्यन्तरे विलुप्ताः दैलेख जनपदस्य गुरांस ग्रामपालिकायाः तृतीय वडा क्षेत्रे गृहवर्तिनौ महेन्द्र शाही, कर्ण शाही च, अछाम जनपदस्य तुर्मा खाद ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य अष्टाविंशति वर्षीय महेन्द्र साउद, बझाङ जनपदस्य बुङ्गल नगरपालिकायाः प्रथमवडा क्षेत्रस्य पञ्चत्रिंशत् वर्षीय शेरसिम्म धामी च मृतावस्थायां प्राप्ताः वर्तन्ते इति प्रहरिणा ज्ञापितं वर्तते। उद्धारस्य कृते हेलिकप्टर यानेन काष्ठमण्डपात् गतेन विज्ञसहितस्य समूहेन चत्वार एव सभाः भूमिगत सरणीतः बहिः निष्कासिताः सन्ति। पोषण सम्बद्धायाः सेवायाः विस्ताराय पञ्चमं विश्वसम्मेलनं गतदिने काष्ठमण्डपे प्रारब्धमस्ति। सम्मेलनाय श्रव्य दृश्य सन्देशं प्रददति राष्ट्रपतिः विद्यादेवी भण्डारी अवोचत्, आर्थिक सामाजिक रूपान्तरणे पोषणस्य महन् महत्वं वर्तते। सम्मेलनम् उपप्रधान रक्षा मन्त्रिणा ईश्वर पोखरेलेन, आइभरीकोष्ट देशस्य उपराष्ट्रपतिना ड्यानियल डंकल इत्यनेन च संयुक्त रूपेण उद्घाटितम् आसीत्। पोषणेन सह सम्बद्धानां शिक्षा स्वास्थ्य कृषि महिला बाल बालिका समाज कल्याण क्षेत्राणां विभिन्नेषु विषयेषु पृथक पृथक पञ्चविंशति कार्यशाला सम्मेलने भवन्तीति ज्ञापितं वर्तते। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षं भाषायोगेन वार्षिकं प्रतिवेदनं प्रस्तुतं वर्तते। राष्ट्रपति कार्यालये शीतलनिवासे गतदिने आयोजिते समारोहे आयोगस्य अध्यक्षेण डाक्टर लवदेव अवस्थिना राष्ट्रपतेः भण्डारिणः समक्षं गतवर्षीयं वार्षिक प्रतिवेदनं प्रस्तुतं वर्तते। एवं राष्ट्रपतेः भण्डारिणः समक्षं राष्ट्रिय प्राकृतिक स्रोत वित्तायोगस्य अध्यक्षेण बालानन्द पौडेलेन च गतवर्षीयं वार्षिक प्रतिवेदनं प्रस्तुतमस्ति। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा वदति, सर्वकारेण विहितं प्रदेश प्रमुखाणां निष्कासनम् उपयुक्तं नास्ति। सिन्धुपाल्चोक जनपदस्य ठोकर्पा स्थितस्य बाध भैरव माध्यमिक विद्यालयस्य नवनिर्मितं भवनम् उद्घाटयितुं प्राप्तः सभापति देउवा ह्य सञ्चारकर्मिभिः सह वितायं वार्तायम् अवोचत्, वर्तमान सर्वकारेण सह पूर्ववर्तिना कांग्रेस दलस्य सर्वकारेण विहितान् निर्णयान् नियुक्तिं च न परिवर्तयितुं सहमतौ धृतायं सत्यमपि एतस्याः उल्लङ्घनं विहितम् अस्ति। सभापतिः देउवा सर्वकारस्य गतिविधिनां विरूद्धे कांग्रेस दलम् आन्दोलनं चालयितुं बाध्यं भविष्यतीति प्रत्यादिशत्। सिन्धुपाल्चोक जनपदस्य सुकुटे स्थाने दुरापन्नायां बसयानस्य दुर्घटनायां मृतकानां संख्या ऊनविंशतिः प्राप्ता वर्तते। गतदिने सुनकोशी नद्या प्रवाह्य आनितावस्थायां सिन्धुली जनपदस्य नेपालथोक स्थाने एकस्य च शवस्य घटनास्थलात् किञ्चित् अधः प्राप्तेः अनन्तरं मृतकानां संख्या ऊनविंशतिः प्राप्तास्ति। दुर्घटनायाम् आहतानां मध्ये द्विपञ्चाशत् जनानां धुलीखेल चिकित्सालय उपचार विधीयमानोऽस्ति। जनद्वयं च अतिरिक्तोपचाराय बनेपास्थिते श्री मेमोरियल चिकित्सालय स्थानान्तरितं वर्तते इति प्रहरिणा ज्ञापितं वर्तते। अत्रान्तरे दुर्घटनायाः आहतानां यात्रिणाम् अवस्थायाः विषये नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा भिदेन गतदिने धुलीखेल चिकित्सालयं प्राप्य ज्ञातं वर्तते। रौतहट जनपद वर्तिना सर्वकारीयाधिवक्तृ कार्यालयेन नेपाली कांग्रेस दलस्य नेत्रा मोहम्मद अफताब आलम इत्यनेन सहितानां दशजनानां विरूद्ध आजन्म कारावासनस्य दण्डनम् अभियाच्य दोषत्रय रौतहट जनपद न्यायालये न्यायिक प्रकरणं पञ्जीकारितं वर्तते। प्रहरिणा आलम इत्यनेन सहितेषु दशसु जनेषु व्यक्तिहत्यायाः व्यक्तिहत्यायाः उद्योगस्य विस्फोटक पदार्थ सम्बद्धस्य च न्यायिक प्रकरणत्रयं पञ्जीकारितमस्तीति सर्वकारीयाधिवक्तृ कार्यालयस्य जनपद न्यायाधिवक्ता खडीन्द्र राजकटुवाल अज्ञापयत् इति समाचारः।